ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। श्री भगवानुवाच यदात्थमां महाभाग तच्चिकीर्षितमेव मे ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः। मया निष्पादितं यत्र देवकार्यमशेषतः यदर्थमवतीर्णोह मनुषेण ब्रह्मणार्थितः कुलं वैशापनिर्दग्धं नङ्क्षत्यन्योन्यविग्रहात्। समुद्रः सप्तमेऽन्येतां पुरीं च प्लावयिष्यति। यर्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः भविष्यत्यचिरात् साधो कलिनापि निराकृतः। न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले जनो धर्मरुचिर्भद्र भविष्यति कलौ युगे। त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु मय्यावेश्य मनः सम्यक् समदृक् विचरस्वगाम्। यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः न स्वरं गृह्यमाणं च विद्धि माया मनोमयम्। पुंसो युक्तस्य नानार्थो भ्रमः स गुणदोषभाक् कर्माकर्म विकर्मेति गुणदोषधियोभिदा। तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे। ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् आत्मानुभवतुष्टात्मानान्तरायैर्विहन्यते। दोषबुद्ध्यो भयातीतो निषेधान्न निवर्तते। गुणबुद्ध्या च विहितं न करोति यथार्भकः सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः। पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः। श्रीशुक उवाच इत्यादिष्टो भगवता महाभागवतो नृप। उद्धवः प्रणिपत्याः तत्त्वजिज्ञासुरच्युतम्। उद्धव उवाच योगेश योगविन्यास योगात्मन् योगसम्भव निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः। त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः सुतरां त्वयि सर्वात्मन्न भक्तैरिति मे मतिः। सोऽहं ममाहमिति मूढमतिर्विगाढ त्वन्मायया विरचितात्मनिसानुबन्धे। तत्त्वञ्जसा निगदितं भवता यथाहं संसाधयामि भगवन्ननुषाधिभृत्यम्। सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे। सर्वे विमोहितधियस्तव मायये मे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः। तस्माद्भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम्। निर्विण्णधीरहमुह वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये। श्रीभगवानुवाच प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः समुद्धरन्ति आत्मानमात्मनैवाशुभाषयात्। आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते। पुरुषत्वे च मां धीरा साङ्ख्ययोगविशारदाः आविस्तरां प्रपश्यन्ति सर्वशक्त्युपब्रह्मितम्। एकद्वित्रिचतुष्पादो बहुपादस्तथा पदः बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया। अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरं गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः। अत्राप्युदाहरन्ति ममितिहासं पुरातनम् अवधूतस्य संवादं यदोरमित तेजसः। अवधूतं द्विजं कञ्चिच्चरन्तमकुतो भयं कविं निरीक्ष्य तरुणं यदुपप्रच्छ धर्मवित्। यदुर्वाच कुतो बुद्धिरियं ब्रह्मन्न कर्तुः सुविशारदा यामासाद्य भवान् लोकं विद्वांश्चरति बालवत्। प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः हेतुनैव समीहन्ते आयुषो यशसः श्रियः। त्वं तु कल्पः कविर्दक्षः सुभगो मृतभाषणः न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत्। जनेषु दह्यमानेषु कामलोभदवाग्निना न तप्यसेऽग्निना मुक्तो गङ्गाम्भस्त इव द्विपः। त्वं हि न पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणं ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः। श्रीभगवानुवाच यदुनैवं महाभागो ब्रह्मणि येन सुमेधसा पृष्टसभाजितः प्राह प्रश्रयावनतं द्विजः। ब्राह्मण उवाच सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः यतो बुद्धिमुपादाय मुक्तोटामीहतान् शृणु। पृथ्वी वायुराकाशम आपोग्निश्चंद्रमा रविः कपोतो जगरः सिन्धुः पतंगो मधुकृद्गजः मधुहा हरिणो मीनः पिंगला कुररोर्भकः कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत् एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः यतो यदनुशिक्षामि यथा वा न हुषात्मज तत्तथा पुरुषव्याघ्र निबोध कथयामि ते भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् शश्वत्परार्थ सर्वेहः परार्थैकान्त सम्भवः साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः विषयेष्वा विषन्द्योगी नानाधर्मेषु सर्वतः गुणदोषव्यपेतात्मा न विषज्येत वायुवत् पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन व्याप्त्या व्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् तेजोबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैक् पुमान् स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् मुनिः पुनात्यपां मित्र मीक्षोपस्पर्शकीर्तनैः तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः सर्वभक्षोऽपि युक्तात्मा नादत्ते मलमग्निवत् क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् भुङ्क्ते सर्वत्र दात्रीणाम् दहन् प्रागुत्तराशुभम् स्वमायया सृष्टमिदम् सदसल्लक्षणम् विभुः प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि विसर्गाद्या श्मशानान्ता भावादेहस्य नात्मनः कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना कालेन योगवेगेन भूतानां प्रभवाप्ययौ नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् गुणैर्गुणानुपादत्ते यथा कालं विमुञ्चति न तेषु युज्यते योगी गोभिर्गा इव गोपतिः बुध्यते स्वेन भेदेन व्यक्तिस्थ इव तद्गतः लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् नातिस्नेह प्रसङ्गो वा कर्तव्यः क्वापि केनचित् कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः कपोतः कश्चनारणीये कृतनीडो वनस्पतौ कपोत्या भार्यया सार्धमुवास कतिचित् समाः कपोतौ स्नेहगुणित हृदयौ गृहधर्मिणौ दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः शय्यासनातनस्थान वार्ता क्रीडासनादिकं मिथुनी भूय विश्रब्धौ चेरतुर्वनराजिषु यं यं वाञ्छति सा राजन्स्तर्पयन्त्यनुकम्पिता तं तं समनयत् कामं कृच्छ्रेणाप्य जितेन्द्रियः कपोती प्रथमं गर्भं गृह्णति काल आगते अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सति तेषु काले व्यजायन्त रचितावयवाहरेः शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः प्रजः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः स्नेहानुबद्धहृदयामन्योन्यं विष्णुमायया विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छातो वनेचरः जगृहे जालमातत्य चरतः स्वालयान्तिके कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ गतौ पोषणमादाय स्वनीडमुपजग्मतुः कपोती स्वात्मजान्वीक्ष्य बालकान् जालसंवृतान् तानभ्यधावत् क्रोशन्ति क्रोशतो भृशदुःखिता सा सकृत्स्नेहगुणिता दीनचित्ता जमायया स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्यपस्मृतिः कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकान् प्रियान् भार्यां चात्मसमां दीनो विललापाति दुःखितः अहो मे पश्यतापाय मल्पपुण्यस्य दुर्मतेः अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः अनुरूपानुकूला च यस्य मे पतिदेवता शून्ये गृहे मां संत्यज्य पुत्रैश्वर्याति साधुभिः सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः जिजीविषे किमर्थं वा विधुरो दुःखजीवितः तांस्तथैवावृतान्शिग्भिर्मृत्युग्रस्तान् विचेष्टतः स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोपतत् तं लब्ध्वा दुब्धकः क्रूरः कपोतं गृहमेधिनं कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् एवं कुटुम्ब्य शान्तात्मा द्वन्द्वा रामः पतत्रिवत् पुष्णन् कुटुम्बं कृपणः सानुबन्धो वसीदति यः प्राप्यमानुषं लोकं मुक्तिद्वारमपावृतं गृहे सुखगवत्सक्तस्तमारूढच्युतं विदुः ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश स्कन्धे सप्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।